भक्त अपि कुशलानि वा इत्येव अर्थः. सुहृद्बलं को सर्वं. तर्हि तस्य उत्तरं दिलीपः वदन् अस्ति, त्वादृशे गुरौ सति मम किं कष्टं भवितुम् अर्हति, कुशलं. समये वृष्टिः भवति, हविरावर्जितं होतः त्वया विधिवदग्निषु सस्यानाम् अवग्रहविशोषिणाम्. समये वृष्टिः भवति येन शुष्यमानानां वृक्षाणां कृते जलवर्षणं भवति, तेन सस्यानि उत्पद्यन्ते, धान्यानि उत्पद्यन्ते. मम राज्ये सर्वे अपि निरातङ्काः सन्ति, प्रजाजनाः सर्वे भयं, कारणम् ईतयः तान् न बाधन्ते. ईतयः नाम अतिवृष्टिः जायमानः क्लेशः, अनन्तरं अन्यविधाः इति वदति. अत्यासन् ते अपि न सन्ति शलभैः. शलभाः ये यद् कष्टं जनयन्ति धान्यानां विषये, तादृशकष्टं शलभनाम् एतेषां कारणेन जायमानं अनावृष्टिः वा षड् अस्मद् राज्ये नास्ति, यतः तव कृपा अस्ति इति दिलीपः एव अनुवर्तयन् गुरोः स्मारयन् गुरुं सः वदति, एवम् अहं त्वया सर्वदा नः अस्मि, सर्वसि हे गुरो, अहं निरापदः अस्मि, आपद् रहितः, मम आपत् नास्ति. यदा आपत् न भवति तदा सम्पदः अविच्छिन्नाः भवन्ति. समृद्धेः आगमने न भवति अस्मिन् श्लोके. श्लोकम् अहं पठामि, अनुवदन्तु. त्वयैवं चिन्त्यमानस्य ब्रह्मयोनिना सानुबन्धाः कुः. ओहो, सम्पदो मे निरापदः, पदच्छेदं सर्वम् अहं बहु विस्तरेण न वदन्ती अस्मि, यतः पूर्वमेव पठितः, साक्षात् अन्वयम् एव कथयामि. अत्र क्रियापदमस्ति न स्युः. न कथं न स्युः इति अस्ति चेत् स्युः एव इति अर्थः. भवती यदि अहं वदामि भवती अद्य श्लोकं पठतु अथवा एतद् श्लोकं पाठयतु, यदि भगिनी वदति अहं न शक्नोमि, कथं भवती न शक्नोति इत्युक्ते शक्नोति एव इति अर्थः. तथा कथं न स्युः, स्युः एव, भवेयुः एव. न स्युः सम्पदः, सम्पदः धनानि. कीदृश्यः सम्पदः? सानुबन्धाः सम्पदः, अनुबन्धैः सह वर्तमानाः सम्पदः इत्युक्ते अविच्छिन्नाः, बाधां विना, कण्टिन्युस्, अविच्छिन्नाः, सानुबन्धाः सम्पदः, निरन्तरं प्राप्यमानं धनम् इति अर्थः. कस्य सम्पदः मे मम दिलीपः वदति मम कीदृशस्य मम आपत् मुक्तः आपदः अहं मुक्तः अस्मि तव कृपया अतः पुनः कीदृशस्य मम चिन्त्यमानस्य मम अत्र चिन्त्यमानः अस्मि अहं त्वया इत्युक्ते अनुध्यायमानः माता सर्वदा पुत्रं चिन्तयति तर्हि इत्युक्ते किं पुत्रस्य क्षेमविषये तस्य कुशलविषये तस्य पुत्रस्य प्रगतिविषये माता चिन्तयन्ती भवति एवं पुत्रः मात्रा चिन्त्यमानः भवति इत्युक्ते अनुध्यायमानः भवति तथैव पुत्रवत् दिलीपः वसिष्ठगुरुः तं चिन्तयन् भवति तर्हि दिलीपः वसिष्ठेन चिन्त्यमानः अस्ति सदा तादृशः अहं चिन्त्यमानस्य मम इति वदति दिलीपः त्वया चिन्त्यमानस्य मम सानुबन्धाः सम्पदः कथं न स्युः केन चिन्त्यमानस्य कः चिन्तयति एनं दिलीपं त्वया चिन्त्यमानस्य गुरुणा कीदृशेन त्वया गुरुणा पुनः कीदृशेन त्वया ब्रह्मयोनिना ब्रह्म चतुर्मुखब्रह्म ब्रह्मा योनिः नाम कारणं यस्य जन्मकारणं यस्य सः ब्रह्मयोनिः ब्रह्मयोनिना कथं चिन्त्यमानस्य एवं पूर्वोक्तप्रकारेण तेषां प्रजाजनाः राज्यस्य प्रजाजनाः निरीतयः सन्ति राज्ये काले वृष्टिर्भवति एवं चिन्त्यमानस्य दिलीपस्य योगक्षेमविषये चिन्त्यमानस्य दिलीपस्य सर्वमपि कुशलमेव निरापदः अस्ति सः एतस्य अन्वयवाक्यं ब्रह्मयोनिना गुरुणा त्वया एवं चिन्त्यमानस्य अनुध्यायमानस्य अतः निरापदः मे सानुबन्धाः कथं न स्युः पदपदार्थं पश्यामः ब्रह्मयोनिना ब्रह्मणः पुत्रेण ब्रह्मा एव आदौ प्रजापतीन् सृजति किल ते पुनः गोत्रप्रवर्तकाः सन्तः अग्रे प्रवर्तयन्ति तर्हि ब्रह्मयोनिना ब्रह्मणः पुत्रेण गुरुणा त्वया कुलाचार्येण कुलस्य आचार्येण भवता एवं चिन्त्यमानस्य इत्थम् अनेन प्रकारेण अनुध्यायमानस्य अतः त्वं मम विषये चिन्तयसि इत्यतः निरापद् अस्मि अहं निरापदः मे अस्मि निर्गतः आपत् निर्गता आपत् यस्मात् निरापत् अस्मि निरापदः मम अहमस्मि तादृश व्यसनमुक्तस्य मम सम्पदः सम्पत्तयः धनानि सानुबन्धाः अविच्छिन्नाः बाधारहिताः कथं न स्युः कथं न भवेयुः भवेयुः एव इति वदति अस्य श्लोकस्य सरल अर्थः हे गुरु सृष्टिकर्तुः ब्रह्मणः पुत्रः अस्मत्कुलगुरुः त्वम् अस्माकं शत्रूणां दमयिता पूर्वं वदति किल तव बाणः एव शत्रून् मारयति किं करोति मृतशरीरं पुनः विद्यति इव अस्ति वस्तुतः तव मन्त्रेण एव मम शत्रवः पराजिताः भवन्ति इति पूर्वं दिलीपः वदति उक्तवान् तदिदानीं उक्तम् एवं चिन्त्यमानस्य, तदेवम् इति पदस्य एव अत्र व्याख्यानं क्रियते. एवम् अस्माकं शत्रूणां दमयिता आपदां निवारयिता, आपदः निवारयति त्वं, निवारयसि त्वम् आपदां निवारयिता त्वं प्रजानां च रक्षकः असि. अतः एव अहम् आपद्भ्यः मुक्तः अस्मि, मम प्रजाः च सर्वविधभयेभ्यः मुक्ताः सन्ति, निरीतयः सन्ति इति उक्तं किल पूर्वम्. भयं विना तिष्ठन्ति प्रजाः. कथं तद्? व्रताध्ययनरूपं त्वदीयं धनमेव अस्मत् कुलस्य बलम्. पुरोहितः, राजपुरोहितः अथवा राजगुरुः, कुलगुरुः, तस्य व्रतं, तस्य अध्ययनम् एव तद् तपोबलं भवति. तेन तपोबलेन सः राज्ञः सुष्ठु मार्गदर्शनं करोति, उपदेशं ददाति. तेन उपदेशेन राजा सुष्ठु राज्यस्य शासनं करोति इति एव देशस्य परम्परा. तस्मात् मम सम्पदः अविच्छिन्नाः कथं न भवेयुः? निश्चयेन भवेयुः इति अत्र अर्थः. एकवारं श्लोकं मिलित्वा पठामः. त्वयैवं चिन्त्यमानस्य ब्रह्मयोनिना सानुबन्धाः कथं न स्युः, संपदो मे निरापदः. पञ्चषष्टितमश्लोकः. इदानीं तस्य कुशलविषये कथनं समाप्तम्. इदानीं कुशलमपि अस्ति, अकुशलमपि अस्ति. तस्य काचित् चिन्ता अस्ति, प्रजायाः अपेक्षा. तदिदानीं कथयन् स्ववचनम् अनुवर्तयति दिलीपः. तवैतस्याम् अदृष्टस्सदृशप्रजम् न माम् अवति सद्वीपा रत्नसूरपि मेदिनी. अत्र अवति इति क्रियापदमस्ति. न अवति, यदा नकारः भवति तर्हि क्रियापदेन सह तस्य अन्वयः भवति. कुत्रापि श्लोके नकारः क्रियापदात् पूर्वं न भवति चेदपि, श्लोके भवति चेत् नकारेण सह प्रायः तस्य अन्वयः भवति. न अवति, का न अवति? मेदिनी, पृथिवी. मेदिनी न अवति. सद्वीपा, वर्तमाना. पुनः कीदृशी मेदिनी? रत्नसूः मेदिनी. कं न अवति? माम्, दिलीपम्. कीदृशं माम्? अदृष्टसदृशप्रजम्. प्रजा न दृष्टा. कीदृशी प्रजा? सदृशप्रजा, दिलीपस्य अनुरूपा प्रजा. सुदक्षिणा दिलीप, दिलीपयोः अनुरूपा न दृष्टा. इत्युक्ते स्वस्य आत्मजः, औरसपुत्रः इति वदति किल, जन्म तस्य सुदक्षिणायां जन्म, पुत्रस्य जननं न अभवत् इति वदति. अदृष्टसदृशप्रजम्. कस्यां तादृशी प्रजा न जाता? एतस्यां, समीपे पार्श्वे विद्यमानां पत्नीं सूचय. कीदृश्याम् एतस्यां? वध्वां, तव कुलवधूः सुदक्षिणा तस्यां. कस्य वध्वां? तव हे गुरु तव वध्वां तव स्नुषायां भवति किन्तु सर्वं कुशलम् एव अहं निरापत् अस्मि निरापदः मम अविच्छिन्नाः सानुबन्धाः सम्पदः सन्ति किन्तु तव एतस्यां वध्वाम् अदृष्टसदृशप्रजं मां सद्वीपारत्नसूः अपि मेदिनी न अवति न अवति इति दिलीपः वदति. अत्र अवति इत्यस्य सामान्य अर्थः प्रसिद्ध अर्थः अस्ति रक्षति अवतु माम् अवतु वक्तारम् इति माम् अव इति अपि गीतेषु बहु प्रसिद्धता. किन्तु अत्र अवति इत्युक्ते तोषयति प्रीणयति इति अर्थः. न अवति मां न तोषयति. इदानीम् अन्वयार्थे प्रतिपदार्थं द्रक्ष्यामः. किन्तु यद्यपि त्वत्कृपया सर्वं कुशलं तथापि तव हे गुरो वसिष्ठस्य हे गुरो तव भवतः एतस्यां वध्वाम् अस्यां स्नुषायां सुदक्षिणायाम् अदृष्टसदृशप्रजं माम् अनुरूपां सन्ततिं यः न दृष्टवान् अस्ति तादृशं माम् अनुरूपां सन्ततिं येन अनुरूपा सन्ततिः येन न दृष्टा तादृशः अहम्. अतः अदृष्टसदृष्टप्रजः इति दिलीपस्य विषये एतत् बहुव्रीहि. अदृष्टा सदृशी प्रजा येन अदृष्टसदृशप्रजः तम् अदृष्टसदृशप्रजं सद् मां दिलीपं न अवति किल. का न अवति? सद्वीपा रत्नसूः अपि मेदिनी न अवति. सद्वीपा द्वीपैः सह वर्तमाना. द्वीपः इत्युक्ते भूखण्डः भवति परितः समुद्रः भवति चेत् ऐलेण्ड् द्वीपः. विशालभूभागः अस्ति तद्विहाय अन्यद्वीपाः अपि एतस्य राज्ये अन्तर्भवति इति अर्थः. उदाहरणार्थम् इदानीं भारतदेशः अस्ति इति समीपे अस्ति तदपि अण्डमान् निकोबार् ऐलेण्ड्स् अस्ति तत्सर्वमपि भारत राष्ट्रे एव किल अन्तर्भवन्ति ते सर्वे अपि. तथैव एते द्वीपाः बहवः द्वीपाः सन्ति. ये द्वीपाः दिलीपस्य भूभागे राष्ट्रे एव अन्तर्भवन्ति साम्राज्ये अन्तर्भवन्ति. सद्वीपा एषा मेदिनी पृथिवी मेदिनी रत्नसूः अपि रत्नानि सूयते. अमरकोशे रत्नगर्भा इति पदमस्ति. रत्नगर्भा मेदिनी भूमिः मां न प्रीणाति. पुत्ररत्नः नास्ति इति कारणेन रत्नैः गर्भिता मण्डिता एषा पृथिवी अपि मां न तोषयति. रत्नानाम् उत्पादयित्री अस्ति पृथिवी राज्यश्रीः. सा राज्यश्रीः अपि मां न तोषयति. पुत्रश्रीः नास्ति किल. अतः भावार्थः हे गुरु भवत्कृपया विपत्तयः मां न बाधन्ते. अविच्छिन्नाः सम्पदः मम सन्ति तथापि सन्तानश्रियाः अभावेन राज्यश्रीः मां न तोषयति. सर्वरत्नेभ्यः पुत्ररत्नम् एव श्लाघ्यं किल मल्लिनाथस्य व्याख्याने सूचितमस्ति. सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यम् इत्यतः एषा पृथिवी एव मम साम्राज्यं तथापि तद् मां न तोषयति इति वदति. श्लोकं पठामः. किन्तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजं न माम् अवति सद्वीपा रत्नसूरपि मेदिनी. षट्षष्टितमः श्लोकः. नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः प्रकामभुजश्राद्धे स्वधा संग्रह तत्पराः। अत्र पितरः किं चिन्तयेयुः इति दिलीपः वदति। न भवन्ति, पुनरपि नकारः अस्ति, भवन्ति इति अध्याहृतम्। प्रकामभुजः न भवन्ति, कीदृशाः न भवन्ति? प्रकामभुजः यथेष्टं भुञ्जन्ति किल, तद् न भवन्ति। कीदृशाः प्रकामभुजः न भवन्ति? मत्तः परं वंश्याः, मम अनन्तरं पितरः, मत्तः परं ये पितरः स्वधा ग्रहणं कुर्वन्ति ते इति अर्थः अत्र मत्तः परं वंश्याः। पुनः कीदृशाः? पिण्डविच्छेददर्शिनः। कुत्र, कस्मिन् सन्दर्भे, कस्मिन् अवसरे, श्राद्धे कथं भूताः सन्तः? स्वधा संग्रह तत्पराः सन्तः, प्रकामभुजः न भवन्ति। एतस्य अन्वयः मत्तः परं पिण्डविच्छेददर्शिनः वंश्याः स्वधा संग्रह तत्पराः सन्तः, श्राद्धे प्रकामभुजः नूनं न भवन्ति, निश्चयेन न भवन्ति। प्रतिपदार्थः मत्तः परं, मम अनन्तरम्। पिण्डविच्छेददर्शिनः, पिण्डदानस्य विच्छेदस्य दर्शनकाङ्क्षिणः। पिण्डदानं यदा श्राद्धसमये, तदा पितरः तद् द्रष्टुकामाः भवन्ति, तद् द्रष्टुम् इच्छन्ति। पिण्डविच्छेददर्शनं शीलं येषां ते, अतः पिण्डविच्छेददर्शिनः। वंश्याः, वंशोद्भवाः स्वधासङ्ग्रहतत्पराः सन्तः, पितृभोज्यस्य सङ्ग्रहे लग्नाः। इतः परं दिलीपपर्यन्तं तु यथेष्टं पितृ भोज्यं लभते, प्राप्नोमि, किन्तु इतः परं कथं स्यात्, न भवेत् किल इति मन्यमानाः ते तत्सङ्ग्रहे तत्पराः भवन्ति, तस्य सङ्ग्रहणं कर्तुमिच्छन्ति। यथा निर्धनाः किञ्चित् वा लभन्ते, ततः किञ्चित् भागं ते सङ्गृह्णन्ति। कारणं किम् इत्युक्ते अग्रे अस्माभिः कदाचित् न प्राप्येत, तदर्थं ते सङ्ग्रहणं कुर्वन्ति। अतः एते अपि स्वधासङ्ग्रहतत्पराः भूत्वा कदाचित् प्रकामभुजः न भवन्ति। कार्ये, श्राद्धकार्ये प्रकामभुजः न भवन्ति इत्युक्ते पर्याप्तभोजिनः न भवन्ति। यथेष्टं भुञ्जन्ति चेत् प्रकामभुजः, यथेष्टं न भुञ्जन्ति, किञ्चित् भुक्त्वा अनन्तरम् अग्रे आवश्यकं स्यात् इति भुञ्जन्ति, तथा एवं चेत् प्रकामभुजः न भवेयुः, निश्चयेन न भवन्ति इति दिलीपः वदति। भावार्थः, ममानन्तरं पुत्राभावात् अस्मत्पूर्वजाः श्राद्धे पिण्डविच्छेदम् उत्प्रेक्षमाणाः अत्यन्तः पर्याप्तभोजिनः न भवेयुः। यथा निर्धनाः आपद्धनं सङ्गृह्णन्ति, सेविङ्ग्स् इति किल आपद्धनम्, तथैव एते अस्मद्वंश्याः पितृभोज्यस्य सङ्ग्रहे लग्नाः सन्तः, यथेच्छं न स्वीकुर्युः इति भावः। एकवारं श्लोकं पठामः। नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः मभुजः श्राद्धे स्वधा संग्रह तत्पराः। सप्तषष्टि तम श्लोकः। मत्परं दुर्लभं मत्वा अवर्जितं मया पयः पूर्वैः स्वनिश्वासैः कवोष्णमुपभुज्यते। पूर्वतन श्लोकः पितृ भोज्यम् इति स्वधा इति अस्मिन् विषये आसीत्। यदा देवेभ्यः दीयते तद् स्वाहा इति वदन्ति, पितृभ्यः यद्दीयते तत् स्वधा। तथैव जलमपि श्राद्धसमये जलदानम् अपि क्रियते किल, तद्विषये वदन्ति। यदा जलदानं क्रियते पितरः स्वहस्तैः तद् गृह्णन्ति किल तज्जलं, तद् जलग्रहणसमये ते दीर्घनिःश्वासं त्यजेयुः। कदा वयं दीर्घनिःश्वासं त्यजामः? यदा मनः भावविह्वलं भवति। कीदृशैः भावैः मनः विह्वलं भवेत्? भयेन अथवा दुःखेन, शोकेन, कदाचित् चिन्तया च। बहु चिन्ता भवति चेदपि अनन्तरं दीर्घनिःश्वासं त्यजामः, भयं, शोकः, दुःखम्। अथवा कदाचित् कार्यं समाप्तम्, इदानीं समाधानम् अभवत्, तदापि दीर्घनिःश्वासः भवति। किन्तु अत्र तेषां दीर्घनिःश्वासत्यागस्य कारणम् अस्ति अग्रे सन्ततेः अभावात्। तर्हि ते यदा निःश्वासं त्यजन्ति, सः च निःश्वासः उष्णः भवति, मनस्तापः भवति चेत् उष्णः भवति किल वायुः, उष्णः भवति इति कारणेन तद् हस्ते विद्यमानं करतले विद्यमानं जलम् उष्णं भवेत्। कवोष्णं जलं पिबेयुः इति वदति दिलीपः। कवोष्णम् इत्युक्ते किञ्चिदुष्णम्, ईषदुष्णं जलं ते वारि ते पिबेयुः इति श्लोकस्य सामान्य अर्थः पश्यामः। अत्र क्रियापदम् अस्ति उपभुज्यते, नूनं निश्चयेन उपभुज्यते, उपभुज्यते सेव्यते, स्वीक्रियते, भुज्यते पयः जलम्। कीदृशं पयः? आवर्जितं, विसृष्टं, त्यक्तं। केन आवर्जितं? मया, दिलीपेन। पयः कवोष्णं, कीदृशं पयः इत्युक्ते कवोष्णं। कैः इत्युक्ते अत्र करणतृतीया, कैः तद् कवोष्णं भवति? तैः, तेषां पितॄणां श्वास उच्छ्वासः भवति किल, तद् निःश्वसनं, श्वासत्यागेन। कैः तादृशं कवोष्णं पयः उपभुज्यते? पूर्वैः। किं कृत्वा? मत्वा। किम् इति मत्वा? इतः परं दुर्लभम् इति मत्वा। कदा दुर्लभं? मत्परं, दिलीपस्य अनन्तरम् इति चिन्तयन्ति। मत्परं दुर्लभं मत्वा मया आवर्जितं पयः पूर्वैः स्वनिःश्वासैः कवोष्णम् उपभुज्यते नूनम्। प्रतिपदार्थः मत्परं, मदनन्तरं, मम अनन्तरं, मम कालस्य अनन्तरं। श्राद्धकार्यं करोमि तावत्कालपर्यन्तं सन्ततिरस्ति, अग्रे सन्ततिः न स्यात् इति भीत्या ते मया दीयमानं जलं कृत्वा पिबेयुः इति वदति। दुर्लभं, दुष्प्रापं, मत्वा, ज्ञात्वा, दुर्लभं, दुष्प्रापं, कष्टेन प्राप्यं, मत्वा ज्ञात्वा मया आवर्जितं दिलीपेन दत्तम् पूर्वैः पूर्वजैः स्वनिश्वासैः कवोष्णं नूनम् उपभुज्यते। स्वनिश्वासैः इत्युक्ते तेषां निश्वासः मनस्तापकारणेन उष्णः भवति, मुखवायुः तेन मुखवायुना उष्णमुखवायुना पीयमानं जलमपि उष्णीभूतं स्यात्। तादृशम् ईषदुष्णं जलं ते निश्चयेन पिबेयुः, तैः पीयते इति वदति। भावार्थः, मम अनन्तरं पुत्राभावात् पितरः अवश्यं दुःखतप्ताः भवेयुः, सन्तप्ताः भवेयुः, मनस्तापः भवति। तापः भवति चेत् बाष्पं बहिरागच्छति किल जलात्, तथैव मनसि तापः भवति चेदपि बाष्पवारि मुखात् उष्णवायुः। तस्मात् मया विसृज्यमानस्य तोयस्य पानसमये तेषां निःश्वसितैः तत् तोयम् ईषदुष्णं सञ्जायेत इति अहम् आशङ्के, इति मम आशङ्का, मम भीतिः इति दिलीपः वदति। इत्युक्ते पितरः अतृप्ताः न भवेयुः इति तस्य उद्देशः। श्लोकं पठामः। मत्परं दुर्लभं मत्वा नूनमावर्जितं मया पयः पूर्वैस्वनिश्वासैः कवोष्णम् उपभुज्यते। अष्टषष्टितमश्लोकः। दिलीपः वदति अहं पितृऋणं तस्मात् अहं न मुक्तः, किन्तु देवऋणात् अहं मुक्तः। कारणम् अहं देवऋणं यदस्ति तस्मात् अहं मुक्तः, यतः अहं यज्ञं करोमि, यागयज्ञं विधिम् अनुसृत्य करोमि, यथाविधि करोमि, तेन मम मनः प्रसन्नम् अस्ति। मम पितरः मत्तः परं दुःखिताः भवेयुः, सन्तप्ताः भवेयुः इति भीत्या, इति चिन्तया अहं पितृऋणात् मुक्तः नास्मि। अस्य श्लोकस्य अर्थः एवं भवति। पठामः। विशुद्धात्मा प्रजालोपनिमीलितः प्रकाशश्च प्रकाशश्च लोकालोक इवाचलः। अत्र क्रियापदम् अध्याहृतम् अस्मि, अहं प्रकाशः च अप्रकाशः च अस्मि, किञ्चित् प्रसन्नः अपि अस्मि, दुःखितः अपि इति अर्थः। कः इव? कश्चन पर्वतः अस्ति, लोकालोकः पर्वतः इति। लोकः नाम आलोकः इत्युक्ते प्रकाशः इति अपि अर्थः। सः च पर्वतः बहु विचित्रः, आगे अप्रकाशः भवति, अन्तः तस्य भवति। तद् कथम् इति अग्रे भगिन्या लिखितमस्ति, तद् टिप्पणी मध्ये पठन्तु। प्रकाशः च अप्रकाशः च अस्मि, कः तादृशः अहं? दिलीपः वदति कीदृशः अहं? सोऽहम् इति उक्तवान् किल, सः अहं किम्? देवयज्ञं कृत्वा तस्मात् सन्तुष्टः अहम्, प्रीतमनाः अहम्। पुनः कीदृशः? इज्ज्या विशुद्धात्मा इति इदानीं वदति। इज्ज्या इत्युक्ते यज्ञकार्यं, यज्ञकार्येण पूतमनाः अस्मि, मम मनः पूतं पवित्रीभूतम् अभवत्। पुनः कीदृशः? प्रजालोपनिमीलितः, किन्तु प्रजालोपात् तत्र अभावात् मम मनः मलिनमस्ति, दुःखितमस्ति. कः इव? लोकालोकः पर्वतः इव. सः अहं विद्याविशुद्धात्मा, प्रजालोपनिमीलितः, लोकालोकः अचलः इव, प्रकाशः च अप्रकाशः च अस्मि इति दिलीपः वदति. सः अहम् इत्युक्ते मदनन्तरं सन्ततेः अभावात् यस्य पूर्वजाः अतृप्ताः भवेयुः तादृशः अहम्. सोऽहम् इति पूर्वतनश्लोकेषु श्लोकद्वयेन सः कथितवान्. किम् उक्तवान्? पितरः स्वधा सङ्ग्रहतत्पराः भवेयुः, अनन्तरं स्वनिश्वासैः कवोष्णं जलं पिबेयुः. तादृशया येषां यस्य पितरः भवन्ति तेन कारणेन अहमपि चिन्तितः अस्मि. सोऽहं तादृशा अहम्. इज्ज्या विशुद्धात्मा, इज्ज्या इत्युक्ते यज्ञकर्म, यज्ञकर्मणा देवऋणं मम नास्ति, अतः देवऋणात् मुक्तः अस्मि. अतः अहं पूतचित्तः, मम मनः प्रसन्नमस्ति. प्रजालोपनिमीलितः, प्रजा सन्तानं, सन्तानस्य अभावात् पितृऋणात् अहम् अमुक्तः अद्यावधि. देवऋणात् मुक्तः किन्तु पितृऋणात् न मुक्तः. कः इव? लोकालोकः अचलः इव. लोकालोकः इति कश्चन पर्वतः अस्ति, तस्य अन्तः सूर्यसम्पर्कात् प्रकाशितः भवति, बहिर्भागः तमो व्याप्त्या अन्धकारः भवति इति अत्र वदति. कारणं स तादृशः अचलः अस्ति यत् समुद्रमण्डलम् अपि व्याप्य बहिः तिष्ठति. सूर्यः सर्वं तत् अन्तर्भागे भवति, अतः सूर्यसम्पर्कात् अन्तः प्रकाशः, बहिः तमोव्याप्तिः च इति पुराणेषु उक्तमस्ति. अर्थः यथा लोकालोकः पर्वतः अन्तः सूर्यसम्पर्कात् बहिः तमोव्याप्त्या च प्रकाशः च अप्रकाशः च भवति, तथा यज्ञादिकर्मणा देवर्णात् विमुक्तः अहं प्रसन्नचेताः अस्मि. मुक्ताभावेन पितृऋणस्य अविमोचनात् कुण्ठितमनाः सञ्जातः अस्मि, दुःखितमनाः अहम् अस्मि इति सः वदति. श्लोकं पठामः एकवारम्. सोऽहम् इज्ज्या विशुद्धात्मा, प्रजालोपनिमीलितः, प्रकाशश्च प्रकाशश्च लोकालोक इवाचलः. नवषष्टितमः श्लोकः. सत्पुत्रः, सत्पुत्रः इहलोके अमुष्मिन् लोके परलोके अपि सुखाय कल्पते इति वदति. श्लोकः. लोकान्तरसुखं पुण्यं तपोदानसमुद्भवं सन्ततिशुद्धवं श्याहि परत्र इह च शर्मणे. अत्र वाक्यद्वयेन अन्वयः. प्रथमवाक्यस्य अन्वयः पृथक्, द्वितीयवाक्यस्य. तपोदानसमुद्भवं पुण्यम् उत्तरसुखं भवति अथवा जनयति. तपोदानसमुद्भवं पुण्यं, यत् पुण्यं दानेन वा भवति तत् पुण्यम् लोकान्तरसुखाय कल्पते इति अर्थः. कश्चन तपोमयं जीवनं करोति, भूरिदानं करोति, सः निश्चयेन सद्गतिं प्राप्नोति। तस्य लोकांतर इत्युक्ते शरीरपतनात् अनन्तरं, पतनस्य अनन्तरं तस्य परलोकसुखम् अवश्यं भवति। किन्तु दिलीपः वदति इहलोके का गतिः, तद् वक्तुं न शक्यते। कदाचित् सः प्रारब्धकर्मणां वशे वशात् सः कष्टमपि अनुभवेत् कश्चन, किन्तु सन्ततिर्भवति चेत्, सन्ततिः कीदृशी सन्ततिः, शुद्धवंश्या सन्ततिः, इह परत्र च शर्मणे भवति। इह अस्मिन् लोके, परत्र परलोके च शर्मणे इत्युक्ते क्षेमाय सुखाय, शर्मन् इति शर्मणे भवति। सरलः एव श्लोकः, अन्वयः भवति तपोदानसमुद्भवं पुण्यं लोकान्तरसुखं भवति। शुद्धवंश्या सन्ततिः हि परत्र इह च शर्मणे भवति। तपोदानसमुद्भवं व्रतादेः च दानात् च समुत्पन्नं पुण्यं, पुण्यं सुकृतं लोकान्तरसुखं परलोकसुखाय कल्पते। किन्तु निश्चयेन शुद्धवंश्या सन्ततिः, शुद्धवंशे जातम् अपत्यम्, इह अस्मिन् लोके, परत्र च परलोके च शर्मणे भवति, सुखाय कल्पते। भावार्थः, उपवासमौनव्रतादीनां तपश्चर्याणाम् अनुष्ठानेन च, अन्नवस्त्रविद्यादिदानेन च यत् पुण्यम् आर्जितं भवति तत् परलोकसुखाय कल्पते। किन्तु शुद्धवंशोत्पन्ना सन्ततिः जीवनकाले सन्तुष्टिं ददाति, सद्गत्यै अपि कल्पते इति अस्य श्लोकस्य अर्थः। अग्रिमं श्लोकम्, इतोपि एकं श्लोकं पठामः। एकसप्तति श्लोकादारभ्य वयं सप्ततितमः श्लोकः, एतं श्लोकं सकृत् पठामः। लोकान्तरसुखं पुण्यं तपोदानसमुद्भवं, शुद्धवंश्या हि परत्र इह च शर्मणे। परत्रेह च शर्मणे, तत्र परत्रेह इति भवेत्, अग्रिमं श्लोकं पश्यामः। तया हीनं विधातर्माम् कथं पश्यन्न दूयसे, सिक्तं स्वयमिव स्नेहात् वन्ध्यमाश्रमवृक्षकम्। दिलीपः वदति सन्तत्या हीनं मां दृष्ट्वा त्वं कथं न व्यथसे, न भवति स्वेनैव वर्धितं लघु बालवृक्षः अस्ति इति चिन्तयतु, वर्धितः सः वृक्षः, बृहत् भवति, विशालः भवति, शाखाः भवन्ति, शाखोपशाखाः भवन्ति, किन्तु तस्मिन् वृक्षे फलानि एव न सन्ति चेत् तद्दृष्ट्वा यः वृक्षस्य वपनं पालनं कृतवान् तस्य दुःखं कथं न स्यात्। त्वमेव मम गुरुः, मम पितृतुल्यः, त्वं मम एतां परिस्थितिं दृष्ट्वा कथं दुःखं न करोषि इति दिलीपः स्वगुरुं वदति। पुनः कीदृशत्वं कीदृशः त्वम् इत्युक्ते विधातः त्वं, विधाता त्वं साक्षात् सृष्टिकर्ता इव, प्रजापतिः किल इत्युक्ते समर्थः त्वं, मम क्लेशस्य कारणं, मम क्लेशस्य समाधानं सर्वं वक्तुं त्वं समर्थः, तस्य समाधानं कर्तुमपि त्वं समर्थः, तथापि कथं त्वं न दुःखं करोषि, दुःखं न करोषि इति दिलीपः वदति. हे विधातः, हे गुरो, कथं न दूयसे, कथं दुःखितः न भवसि त्वं, दूयसे त्वं वसिष्ठः, किं कुर्वन्, पश्यन्, कं पश्यन् मां, दिलीपं, कीदृशं मां, हीनं, कया हीनं, सन्तत्या हीनं, कथम् इव, आश्रमवृक्षकम् इव, कीदृशम् आश्रमवृक्षकं, वन्ध्यं, फलरहितं, पुनः कीदृशं, सिक्तं, येन सिक्तं, वसिष्ठेन स्वेन एव सिक्तं, कस्मात् सिक्तं, स्नेहात्, स्नेहात् वर्धितं फलरहितं वृक्षं दृष्ट्वा यथा कश्चन, तथैव स्नेहात् वर्धितं पुत्रम् अप्रजं दृष्ट्वा कश्चन कथं दुःखितः भवितुं नार्हति इति दिलीपः पृच्छति. विधातः स्नेहात् स्वयमेव सिक्तं वन्ध्यम् आश्रमवृक्षकम् इव तया हीनं मां पश्यन् कथं न दूयसे. अत्र तया हीनम् इत्युक्ते सन्तत्या हीनं, पूर्वोक्तं सन्ततिः शुद्धवंश्या सन्ततिः इह परत्र च शर्मणे इति उक्तवान् किल, तादृश तया हीनं, सन्तत्या हीनं मां पश्यन् कथं न दूयसे. अन्वयार्थः, हे विधातः, हे गुरो, तया सन्तत्या हीनं रहितं मां दिलीपं स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं, जलसेचनं कृत्वा वर्धितं, वन्ध्यम् आश्रमवृक्षकं निष्फलम् आश्रमस्य बालवृक्षं. यदा वृक्षः लघुः आसीत् तदा त्वं यदि वृक्षस्य प्रतिदिनं तस्य सेचनं जलसेचनं कृतवान् वर्धितं, तस्मिन् वृक्षे फलानि न सन्ति चेत् कथं दुःखं न भवति, तथैव मां दृष्ट्वा तव दुःखं कथं न भवति. आश्रमवृक्षकम् इव पश्यन् अवलोकयन् कथं न दूयसे, कथं त्वं न परितप्यसे, तव दुःखं कथं न भवति इति पृच्छति. अत्र समर्थोऽपि कथं सन्तत्यारहितं मां ज्ञात्वा भवान् उपेक्षसे इति दिलीपः वदति. विधातः, यथा आत्मना एव जलसेकेन प्रेम्णा वर्धितम् आश्रमस्य बालवृक्षः यदि निष्फलः स्यात् तर्हि सः शोचनीयः भवति, इत्युक्ते तद् विषये चिन्ता करणीया भवति, चिन्तां कर्तुं योग्यः भवति सः वृक्षः. स्वकृपया संवर्धितमपि मां पुत्रहीनं दृष्ट्वा भवान् कथं न दुःखी दुःखतप्तः भवति. एकवारं श्लोकं पठामः. तया हीनं विधातर्मां शन्न दूयसे, सिक्तं स्वयमिव स्नेहात् वन्ध्यमाश्रमवृक्षकम्. एकसप्ततितमश्लोकात् आरभ्य वयम् अग्रिमदशश्लोकेषु तस्य अध्ययनं कुर्मः. अग्रिमश वर्गे भवन्तः इदानीमेव
विरामं